नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन यमेवैष वृणुते तेन लभ्यः तस्यैषात्मा विवृणुते तनुं स्वाम् तस्यैषात्मा विवृणुते तनुं स्वाम्।